प्रपर्वदानामु सतीरुपस्थादस्मे जिभविषीते हासमाने गावेव शुभ्रे मातरादिहाने विपाच्छद्रीपयसा जपेते इन्द्रेषु ते प्रसवम् भिक्षमाणे अच्छा समुद्रम् रथ्येव यातः समाराणे भूर्मिभिः पिम्बमाने अन्या वामन्यामप्येति शुभ्रे अच्छा सिन्धुम् मातृतमामजा संविपासमुर्वीम् सुभगा मगन्म मत्समीप मातरा संविहाने समानम् यो निमनो सञ्चरन्ति येना भयम् प्रजसा पिन्दमाना अनुयोनिम् देवकृतम् चरन्ति नवर्तवे प्रसवः सर्गदक्तः किञ्जुर्विप्रो नद्यो जोहवीति रमध्वम् एव च सोम्या जरितावरीरूपमुहूर्तमेवैः प्रसन्ध्वमच्छा बृहतीम नीशाभस्युरः मे कुशिकस्य सूनुः इन्द्रो अस्माद्वज्रबाहुरपाहन् भृत्रम् परिधिम् नदीनाम् देवो नयत्स पितासु पाणिस्तस्य भयम् प्रसवेयामभुर्वीः प्रपाच्यम् सस्वधा वीर्या अन्तलिङ्गस्य गर्भयदहिम् विभृश्चत् विवज्रेण परिणतो जघाना जन्नापोजनमिच्छमानाः एतद्वचो जरितर्माभिमृष्टा आयत्ते घोषानुत्तराजुगामि मुक्षेषु कारो प्रतिनोजुरस्वमानो निकः पुरुषत्रा नमस्ते ओषस्वसारः कारवे शृणोत यजौवो दूरादनसारथेन निषून मध्वम् भवता सुपाराधो अक्षाः सिन्धवः श्रोत्याभिः आदेकारो शृणवामापचांसि ययाथ दूरादनसारथेन निदेनम् सैप्याने भजोषामर्यायेव कन्या सस्वचैते यदङ्गत्वा भरताः सन्तरे युर्गव्यम् ग्रामयिषित इन्द्रदूतः हर्षादः प्रसवः सर्गदर्गावो वृणे सुमतिम् यज्ञयानाम् नदीनाम् प्रविन्मध्वमिषयन्ति सुराधा भक्षणा प्रणध्वम् जातशीभम् उद्वभूर्मिः संज्ञाहन्त्वा भोजोत्राणि मुञ्चत मा दुष्कृतो येन साज्ञौ नमारता